इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम्। प्रवाचको युवराज भट्टराय। आदौ मुख्य वार्ताः। प्रधानमन्त्रिणा श्रीनरेन्द्रमोदिना जीविकोत्पादन विषये बजट इति वित्तसंकल्पनायाः पश्चात् वेबिनारिति आभासीयम् उपवेशनं सम्बोधितम्। प्रोदितं च यत् सर्वकारेण जनानाम् अर्थव्यवस्थायाः नवाचाराणाम् आधारिक संरचनानां निवेशस्य च कृते समानरूपेण प्रदत्तास्ति प्राथमिकता। सर्वकारेण लैंगिक संवेदनशील शासन पद्धतिं सुनिश्चेतुम् आदर्श महिलानुकूल ग्राम पञ्चायतानां कृतः प्रारम्भः। रेलविभागेन फरवरी 15 नवदिल्ली रेलस्थासने दुरापन्नायाः ससंभ्रम पलायन दुर्घटनायाः अनन्तरं 5 वरिष्ठाधिकारिणः स्थानान्तरिताः। झारखण्ड पश्चिमीय सिंहभूम जनपदे आईईडी इति विस्फोटे सीआरपीएफ बलस्य भटत्रयं व्रणीभूतम्। अमेरिकीयेन राष्ट्रपतिना डोनाल्ड ट्रम्पेण प्रोच्यते यत् तेन प्रवर्तितं टेरिफाख्यं पारस्परिकं प्रशुल्कम् अप्रैल द्वितीयातः क्रियान्वयिष्यते। अपि च लाहोरे चैम्पियंस ट्रॉफी क्रिकेट स्पर्धा श्रृंखलायाः प्रागुपान्त्य चक्रस्य द्वितीये द्वन्द्वे न्यूजीलैंड दलेन प्रथमं क्रीडता दक्षिण अफ्रीका दलस्य पुरतः उपस्थापितं 63-300 धावनांकानां लक्ष्यम्। अथ वार्ताः विस्तरेण। प्रधानमन्त्री श्रीनरेन्द्र मोदी प्रावोचत् यत् प्रशासनेन निवेशे आधारिक संरचनार्थं उद्योगार्थं च यावती प्राथमिकता प्रदत्तास्ति तावती एव प्राथमिकता प्रजाभ्यः अर्थव्यवस्थायै नवाचारेभ्यश्चापि अस्ति प्रदत्ता। अद्य वीडियो कॉन्फ्रेंसिंग इति दृश्य श्रव्य माध्यमेन आजीविका विषयम् अवलम्ब्य वित्त संकल्पनायाः पश्चात् वेबिनार इति आभासीयम् उपवेशनं सम्बोधयन् श्रीमोदी न्यगादीत् यत् जनानां निवेशस्य दृष्टिकोणः त्रिषु स्तम्भेषु शिक्षायां कौशलेषु स्वास्थ्य सेवासु च आधारितः अस्ति।
हमने इन्वेस्टमेंट में जितनी प्राथमिकता इंफ्रास्ट्रक्चर और इंडस्ट्रीज को दी है उतनी ही प्राथमिकता पीपल इकोनॉमी और इनोवेशन को भी दी है। कैपेसिटी बिल्डिंग और टैलेंट नर्चरिंग देश की प्रगति के लिए फाउंडेशन स्टोन का काम करती है। इसलिए अब विकास के अगले चरण में हमें इन क्षेत्रों में और ज्यादा निवेश करना है।
अमुना प्रोक्तं यत् अद्य जनाः विलोकितुम् अर्हन्ति यत् कथंकारं भारतस्य शिक्षा प्रणाली भूरि दशकानाम् अनन्तरं बृहत् परिवर्तनं सम्मुखीकुरुते। श्रीमोदिना प्रतिपादितं यत् वेबिनार इति आभासीयोपवेशनस्य विषयः जनेषु अर्थव्यवस्थायां नवाचारेषु च निवेशः इति विकसित भारतस्य दिङ्निर्देशान् निर्धारयति।
इन्वेस्टिंग इन पीपल इकोनॉमी एंड इनोवेशन ये एक ऐसी थीम है जो विकसित भारत के रोडमैप को डिफाइन करती है। इस साल के बजट में आपको इसका प्रभाव भी बहुत बड़े स्केल पर दिख रहा है। इसलिए यह बजट भारत के भविष्य का ब्लूप्रिंट बनकर सामने आया है।
अग्रे अनेन भणितं यत् ऐषमो वित्त संकल्पनायां दैशिक पर्यटनस्य अन्ताराष्ट्रिय पर्यटनस्य च वर्धापनार्थं नैके निर्णयाः स्वीकृताः सन्ति।
हिल इन इंडिया और लैंड ऑफ द बुद्धा इस अभियान के माध्यम से दुनिया भर के पर्यटकों को आकर्षित किया जा रहा है। भारत एक ग्लोबल स्तर का टूरिज्म एंड वेलनेस हब बने इस दिशा में प्रयास किए जा रहे हैं।
श्रीमोदी प्रत्यपादयत् यत् भारतम् एआई क्षमतानां विकासार्थं राष्ट्रिय बृहद् भाषा प्रतिदर्शं स्थापयिष्यति। असौ एतदपि अभाणीत् यत् अस्यां दिशि प्रशासनेतर क्षेत्रमपि अग्रे आगच्छेत् इति आवश्यकमस्ति। प्रधानमन्त्री प्रावोचत् यत् विश्वमेकं विश्वसनीयं सुरक्षितं लोकतान्त्रिकं च राष्ट्रं प्रतीक्षते यच्च एआई क्षेत्रे आर्थिक समाधानस्य विरचनं कर्तुं प्रभवेत्। एषः अवोचत् यत् सर्वकारेण स्टार्टअप प्रकल्पानां वर्धनार्थम् एतस्यां वित्त संकल्पनायां नैके पदक्षेपाः सन्ति उत्थापिताः। आजीविकोत्पादनं सर्वकारस्य प्रमुख क्षेत्रेषु एकतमं क्षेत्रं वर्तते। प्रधानमन्त्रिणः दृष्टिकोणतः प्रेरितो भूत्वा सर्वकारेण जीविकावर्धनं समेधितुम् आजीविकायाः समधिकान् अवसरान् उत्पादयितुं नैके पदक्षेपाः उत्थापिताः सन्ति। अस्य विचार विमर्शस्य उद्देश्यः चिरस्थायि समावेशिता पूर्ण विकासेन साकं प्रौद्योगिक्याम् अन्य क्षेत्रेषु च नेतृत्व विधानपूर्वकं 47-2000 यावत् विकसित भारतस्य लक्ष्यस्य साकारीकरणस्य दिशि कार्यकर्तुः कुशलस्य स्वस्थ कार्यबलस्य मार्गस्य प्रशस्तीकरणमस्ति। पंचायत राज राज्यमंत्री प्रोफेसर एसपी सिंह बघेल, स्वास्थ्य परिवार कल्याण राज्यमंत्री अनुप्रिया पटेल वर्या च अद्य मॉडल महिला अनुकूल पंचायत प्रतिदर्श ग्राम कार्यक्रमस्य शुभारंभं कृतवन्तौ। एषः उपक्रमः मन्त्रालयस्य ऐषमः अन्ताराष्ट्रिय महिला दिवस समारोहस्य अंगत्वेन वर्तते। एतस्य उपक्रमस्य प्राथमिकः उद्देश्यः प्रत्येकस्मिन् जनपदे न्यूनान्यूनम् एकस्य आदर्श महिलानुकूल ग्राम पंचायतस्य स्थापना वर्तते। एतद्धि लैंगिक संवेदनशीलानां बालिकानुकूल शासन प्रथानां च कृते प्रकाशस्तम्भत्वेन कार्यं करिष्यति। दिवसव्याप्यस्मिन् कार्यक्रमे विभिन्न मन्त्रालयानां विभागानां संयुक्त राष्ट्र जनसंख्याकोष सन्निभानां च अन्ताराष्ट्रिय संघटनानां प्रतिनिधय प्रतिभागं कुर्वन्ति स्म। संस्कृत वार्तायाः संस्करणम् इदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जाल पटले www.newzoneair.gov.in इत्यत्र अथ च newzoneair चलदूरभाषीय तन्त्रांशे अपि श्रुतिगम्यो भविष्यति। नवदिल्ली रेलस्थासने दुरापन्नायाः ससम्भ्रम पलायन दुर्घटनायाः पृष्ठभूमौ DRM इति दिल्लीमण्डल रेल प्रबन्धकम् अतिरिक्त दिल्लीमण्डल रेल प्रबन्धकम् रेल सुरक्षाबलस्य सहायक सुरक्षा आयुक्तञ्च समेत्य पञ्च वरिष्ठाधिकारिणः स्थानान्तरिताः सन्ति। ध्येयमस्ति यत् विगते मासे 15 दिनांके प्रयागराजं प्रति गम्यमानेषु रेलयानेषु आरोहणार्थं यात्रिणां सम्मर्दाधिक्य कारणेन दुरापन्न घटनायाम् 18 तीर्थयात्रिणः प्राणैः वियुक्ताः आसन्। 15 जनाश्च व्रणिताः अवर्तन्त। आदेशस्य अनुसारेण पुष्पेश आर त्रिपाठी दिल्ल्याः नूतनः दिल्लीमण्डल रेल प्रबन्धको भविष्यति। झारखण्डे पश्चिमीय सिंहभूम जनपदस्य जराईकेला आरक्षिस्थात्रान्तर्गतं बालिवा वनक्षेत्रे अद्य दुरापन्ने IED विस्फोटे CRPF इति बलस्य त्रयो भटाः गम्भीररूपेण व्रणीभूताः सन्ति। त्रयश्चापि भटाः सुरक्षिताः उपचाराधीनाश्च सन्ति। SPT आरक्षि अधीक्षकेण आशुतोष शेखरेण घटनायाः पुष्टिपुरस्सरं प्रतिपादितं यत् अद्य प्रातः कालादेव सुरक्षाबलम् अन्वेषणाभियानकार्ये निरतम् आसीत्। ध्येयमस्ति यत् त्रयश्चापि व्रणिताः भटाः उपचारार्थं विमानेन रांची नगरं सन्नेष्यन्ते। अमेरिकायाः राष्ट्रपतिः डोनाल्ड ट्रम्पः स्वप्रशासनस्य व्यापारनीत्याः सुदृढ दृष्टिकोणं प्रदर्शयन् अत्यधिकं टेरिफ इति प्रशुल्कं विरुध्य यूरोपीयसंघस्य चीनस्य ब्राजीलस्य भारतस्य दक्षिणकोरियायाः अन्येषां च देशानाम् आलोचनां कृत्वा अप्रैल मासस्य द्वितीय दिनांकात् पारस्परिक प्रशुल्कस्य कार्यान्वयनम् उद्घोषितवान्। कांग्रेस इत्यस्य एकस्मिन् संयुक्त सत्रे स्वकीये उद्घाटन भाषणे स अकथयत् यत् एतैः राष्ट्रैः अस्मासु यादृशः शुल्क स्थाप्यते तादृशः एव अस्माभि तेषु स्थाप्यते। ट्रम्पः अवोचत् यत् अन्यैः देशैः दशकेभ्य अमेरिकां विरुध्य प्रशुल्कम् उपयुज्यते। अधुना तान् देशान् विरुध्य प्रशुल्क प्रयोगस्य समयः अमेरिकायाः अस्ति। सामान्यतः यूरोपीय संघ चीन ब्राजील भारत मेक्सिको कनाडा चेत्यादिभिः सह अन्य राष्ट्राणि अमेरिकायाः अत्यधिकं प्रशुल्कम् आहरन्ति यद् अनुचितमस्ति। असौ वस्तूनां स्वदेशे विनिर्माणस्य प्रतिबद्धतां समर्थयन् प्रोक्तवान् यत् अमेरिकायाम् एव वस्तूनाम् उत्पादनेन एव प्रशुल्के न्यूनताम् आनेतुं शक्यते। सः स्पष्टीकृतवान् यत् वरिष्ठनागरिकाः सामाजिकसुरक्षायाः लाभेषु कीदृशमपि प्रशुल्कं न दास्यन्ति। सः वरिष्ठनागरिकान् आश्वासितवान् यत् ते प्रशासनेन प्रदत्तान् सामाजिकसुरक्षालाभान् प्रशुल्करहितम् उपभोक्तुं शक्नुवन्ति। अपि च क्रिकेट क्रीडायां लाहौरे चैम्पियंस ट्रॉफी इति क्रिकेट स्पर्धा श्रृंखलाया प्रागुपान्त्य चक्रीये द्वितीये द्वन्द्वे न्यूजीलैंड दलस्य दक्षिण अफ्रीका दलस्य च प्रचलति संघट्टः। तत्र हि न्यूजीलैंड दलेन षण्णां क्रीडकानां हानौ 263 धावनांकस्य लक्ष्यं अफ्रीका दलस्य पुरतः उपस्थापितमस्ति। इति वार्ता।